एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। अविरलवृष्ट्या नदीषु जलप्रवाहस्य वर्धनात् नदीनाम् तटवर्ती क्षेत्रेषु चैः सावधानताम् अवलम्बितुम् जलवायु विज्ञान विभागस्य जलविप्लव पूर्वानुमान महाशाखया अनुरुद्धम् वर्तते। शनिवासरस्य रात्रितः जायमानाभिः वर्षाभिः सप्तसु एव प्रदेशेषु प्रवहन्तिषु स्वल्पनदीषु आकस्मिक जलप्रवाहस्य संकटस्य विद्यमानत्वात् तटीय क्षेत्रेषु उच्चैः सावधानतामवलम्बितुम् अनया महाशाखया सूचनां प्रकाश्य एवम् अनुरुद्धम् वर्तते। बर्दिया जनपदे गतदिवसतः जायमानानां वर्षाणां कारणेन बाँसगढ़ी बारबर्दिया नगरपालिकयोः विभिन्नानां स्थानानां गृहाणि जलमग्नानि सन्ति। तत्र शतद्वयाधिकानि गृहाणि निमज्जितानि इति बर्दिया जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक हिक्मत बहादुर बोहरा ज्ञापयति। एतस्य अनुसारेण जलमग्नतया प्रभाविताः जनाः स्थानीयेषु विद्यालय भवनेषु स्थापिताः सन्ति। जलविप्लवेन प्रवाह्य बर्दिया दोलखा जनपदयोः पञ्च जनाः विलुप्ताः सन्ति। बर्दिया जनपदस्य बोवई नद्या जलविप्लवेन प्रवाह्य गुलरिया स्थानस्य त्रयो जनाः विलुप्ताः वर्तन्ते। गतदिने काष्ठान्वेषणस्य क्रमे जलविप्लवेन प्रवाह्य गुलरिया नगरपालिकायाः द्वादशवडा क्षेत्रवर्तिनो भैंसाई स्थानस्य बालकृष्ण थारू, अष्टमवडा क्षेत्रवर्तिनः थपुवा ग्रामस्य अक्षय थारू, पण्डितपुरस्य महेश चौधरी च विलुप्ताः इति बर्दिया जनपदस्य प्रहरी नायब उपरीक्षक हिक्मत बहादुर बोहरा अज्ञापयत्। विलुप्ताः जनाः नेपाल प्रहरिणः, नेपाली सेनायाः सशस्त्र प्रहरिणश्च समूहेन अन्विष्यमाणाः सन्तीति असौ अवोचत्। गतदिने एव अविरलवृष्टेः पश्चात् दुरापन्नेन जलविप्लवेन प्रवाह्य दोलखा जनपदस्य बिगु ग्रामपालिकायाः सप्तमवडा क्षेत्रवर्तिनो राखाम स्थानस्य पिता पुत्रौ च विलुप्तौ स्तः। गृहात् घण्टावधिक दूर्याम विद्यमाने तीनपाटे स्थाने वन्य व्यञ्जनम् अवचेतुम् गतौ पञ्चत्रिंशत् वर्ष कल्पो निमदोर्जे शेर्पा तदीय पुत्र द्वादश वर्ष कल्प पासाङ शेर्पा च जलविप्लवेन प्रवाहितौ इति वडा क्षेत्रस्य अध्यक्ष दलबहादुर श्रेष्ठ अवोचत्। तनहु जनपदस्य बन्दीपुर ग्रामपालिकायाः चतुर्थवडा क्षेत्रवर्तिन्या विमलनगरस्थितया मर्स्याङ्गी नद्या जलस्तरस्य सावधानता बिन्दुः अतिक्रान्तो वर्तते। दिनद्वयेन जायमानानाम् अविरल वर्षाणाम् कारणेन अनया नद्या बिन्दुरसौ अतिक्रान्तोऽस्ति। नेकपा माओवादी केन्द्रेण संघीय विषय सामान्य प्रशासन मन्त्रिणम् अमन लाल मोदी इत्यमुम् मन्त्रीपदात् प्रत्याह्वातम् निर्णीतम् वर्तते। बाल्वाटारवर्तिनी प्रधानमन्त्री निवासे ह्य उपविष्टेन पदाधिकारिणाम् मन्त्रिणाम् च उपवेशेन मन्त्रिणम् मोदी इत्यमुम् प्रत्याह्वातुम् निर्णीतमिति माओवादी दलस्य नेता देवेन्द्र पौडेलः असूचयत्। माओवादी केन्द्रेण जनमत दलम् सर्वकारे सहभागी कारयितुम् मन्त्री मोदी सर्वकारात् प्रत्याहूतो वर्तते। माओवादी केन्द्रस्य पदाधिकारिणाम् उपवेशे पश्चात्तन्याः राजनीतिक परिस्थितेः सर्वकारस्य कार्याणाम् च विषयोरपि विमृष्टमिति नेता पौडेलः अज्ञापयत्। नेपाली कांग्रेस संसदीय दलस्य उपवेशस्य द्वितीय दिने ह्य एकत्रिंशत् सांसदाः धारणाः उपस्थापयन्। नयाँ वानेश्वरवर्तिनी संघीय संसद भवने उपविष्टस्य संसदीय दलस्य उपवेशस्य पश्चात् संचारकर्मीभिः सह भाषमाणः प्रमुख सचेतक पदीयो रमेश लेखकः उपवेशे सांसदानां धारणायाः उपस्थापनस्य क्रमः सञ्चलन् अस्तीत्यतः अद्यापि उपवेशः उपविशति निर्णयश्च विधीयते इति अज्ञापयत्। प्रमुख सचेतक पदीयो लेखक उपवेशे सर्वकारस्य कार्याणाम् अन्य विभिन्न सामयिक विषयाणाम् च विमर्शनम् सदपि सत्ता समीकरणस्य परिवर्तनस्य विषये विमृष्टम् नास्तीति असूचयत्। एवमेव नेपाली कांग्रेस दलस्य केन्द्रीय सदस्यः सांसदश्च रामहरि खतिवडा उपवेशे संसदः अवरोधस्य संसदीय विचाराधीनानाम् विधेयकानाम् जलविप्लव भूस्खलनयोः पशुचतुष्पादेषु प्रसृतायाः लम्पिस्क्रिन् महामार्याश्च विषयेषु विमृष्टमिति असूचयत्। परैह ह्यश्च उपविष्टे उपवेशे पञ्चाशत सांसदाः धारणाः उपस्थापयन् पदाधिकारिणां विचारोपस्थापनम् अवशिष्टमस्तीति च सांसदः खतिवडा अबोधयत्। नेपाली कांग्रेस संसदीय दलस्य उपवेशात् बहिर्भवनस्य क्रमे संचारकर्मीणां प्रश्ने अर्थमन्त्री कांग्रेस दलस्य नेता च डाक्टर प्रकाश शरण महत अनावश्यक रूपेण स्वर्ण तस्कर्य प्रकरणे आत्मनः योजनम् अनुचितम् वर्तते इति भाषमाणः विषयममुं प्रमाणीकर्तुम् प्रत्यादिशत। अर्थमन्त्री डाक्टर महत आत्मनि आरोपे प्रमाणीभूते पदम् त्यक्तुमपि तत्परतास्तीति समस्पष्टयत्। नेपाली कांग्रेस संसदीय दलस्य उपवेशः अद्य पूर्वाह्नस्य एकादश वादने पुनर्वसति। संचार सूचना प्रविधि मन्त्री रेखा शर्मा प्रतिमासम् कार्य प्रगति विवरणम् मन्त्रालय प्रस्तोतुम् अन्तर्गतस्य निकायान् निर्दिशति। संचार सूचना प्रविधि मन्त्रालयस्य सम्बद्ध निकायानाञ्च गत आर्थिक वर्षस्य चतुर्थ त्रैमासिक समीक्षायाम् वार्षिक समीक्षायाम् मन्त्रालय स्तरीय विकास समस्या समाधान समितेः उपवेशे च मन्त्री शर्मा अतःपरं प्रत्येक मासे विहितानां कार्याणां विवरणं मन्त्रालये प्रस्तोतुम् अन्तर्गतस्य निकायान् निरदिशत। मन्त्री शर्मा परिणाममुखिने वेदनारहिताय च सेवा प्रवाहाय सर्वैः आत्मसमीक्षया न्यूनता दुर्बलताः संशोधनीयाश्चेति धारणाम् उपस्थापयत्। मन्त्री शर्मा आवासत महत्वाकांक्षिणी क्षाणी गृहीत्वा तेषाम् क्रियान्वयनाभावावस्थायाः प्राप्तेः अपेक्षया क्रियान्वयनयोग्यम् लक्ष्यम् निर्धारणीयम्। उपवेशे राष्ट्रिय योजनायोगस्य सदस्य डाक्टर अनिता शाह ढुङ्गाना संचार सूचना प्रविधि मन्त्रालयस्य सचिवः कृष्णबहादुर राउत सहसचिव बाबुराम भण्डारी च विचारान् व्यक्तवन्तः। स्वास्थ्य जनसंख्या मन्त्री मोहन बहादुर बस्नेत वदति नेपालीभिः वित्ताभावस्य कारणेन उपचारस्य असामर्थ्यात् मृत्युः वरणीयो नैव भवति। विश्वाङ्ग प्रत्यारोपण दिवसस्य अवसरे यकृत प्रतिष्ठान नेपालेन ह्य काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायाम् असौ नैजेषु सर्वकारीयेषु वा येषु केष्वपि चिकित्सालयेषु प्रतिशतं दशभिः शय्याभिः निःशुल्कीकरणस्य व्यवस्था इदानीं क्रियान्वयमाना अस्ति इति अकथयत्। पूर्व प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षश्च केपी शर्मा ओली कथयति एमाले दले सर्वकाराय रूचेर वैपरीत्येन देशस्य अर्थतन्त्राय जनतायाः दैनन्दिन्यै च चिन्ता वर्तते। नेकपा एमाले दलस्य केन्द्रीय कार्यालय प्रचार प्रकाशन विभागेन ह्य आयोजिते पत्रकार सम्मेलने अध्यक्ष ओली वर्तमान सर्वकारः नेपालम् असफल राष्ट्रं विधातुम् उद्यतोऽस्ति इति आरोपयत्। इति समाचारः।